चर्मकारस्य विश्वासः। एकदा नारदमुनिः पृथ्वीलोके हरिनामकीर्तनं कुर्वन् सर्वत्र भ्रमणं करोति स्म। एकत्र सः एकं ब्राह्मणं पश्यति। सः ब्राह्मणः पाण्डित्याभिमानी। सः गर्वेण मुनिवरं पृच्छति, मुनिवर, यदा भवान् वैकुण्ठं गच्छति नारायणं पृच्छतु, अहं तं कदा प्राप्नोमि? मुनिवरः, अस्तु पृच्छामि इति उक्त्वा ततः गच्छति। पुनः सः एकं चर्मकारं पश्यति। चर्मकारः विनम्रः। सः विनयेन मुनिवरं पृच्छति, मुनिवर, यदा भवान् वैकुण्ठं गच्छति कृपया नारायणं पृच्छतु, अहं तं कदा प्राप्नोमि? मुनिवरः, अस्तु पृच्छामि इति उक्त्वा ततः अपि गच्छति। नारदमुनिः वैकुण्ठं गच्छति। नारायणाय सर्वं निवेदयति। नारायणः वदति, ब्राह्मणः शतजन्मानन्तरं मां प्राप्नोति, किन्तु चर्मकाराय एकम् एव जन्म अवशेषम्। नारदमुनिः चिन्तयति, एवं कथं शक्यते? नारायणः एकम् उपायं करोति। सः मुनिवरं वदति, यदि ब्राह्मणः अथवा चर्मकारः मम विषये पृच्छति चेत् वदतु, अहं सूचिरन्ध्रतः गजं सूत्रयन् अस्मि। नारदमुनिः ब्राह्मणं नारायणस्य वचनं कथयति। सः वदति, भवान् शतजन्मानन्तरं नारायणं प्राप्नोति। ब्राह्मणः विश्वासम् एव न करोति। सः चिन्तयति, मुनिवरः नारायणं न दृष्टवान् एव। सः पृच्छति, यदि भवान् नारायणं दृष्टवान् चेत् वदतु, सः तदा किं कुर्वन् आसीत्? नारदमुनिः वदति, नारायणः सूचिरन्ध्रतः गजं सूत्रयन् आसीत्। ब्राह्मणः कथं शक्यते इति चिन्तयन् पुनः विश्वासं न करोति। सः पुनः चिन्तयति, मुनिवरः नारायणं न दृष्टवान् एव। ततः नारदमुनिः चर्मकारं पश्यति। तं वदति, भोः चर्मकार, एतत् भवतः अन्तिमं जन्म, अनन्तरं भवान् नारायणं प्राप्नोति। चर्मकारः सन्तुष्टः भवति। सः आनन्देन पृच्छति, अहो, यदा भवान् नारायणं दृष्टवान् सः किं कुर्वन् आसीत्? नारदमुनिः वदति, नारायणः सूचिरन्ध्रतः गजं सूत्रयन् आसीत्। चर्मकारः इतोऽपि आनन्दम् अनुभवति। तद्दृष्ट्वा मुनिवरः विस्मितः भवति। सः चर्मकारं पृच्छति, भवान् कथं विश्वासं करोति? चर्मकारः सन्तोषेण वदति, अहो, कथं न करोमि? पश्यतु कियद्बृहद् एषः वटवृक्षः। यदि एकलघुबीजतः इयद्बृहद् वृक्षः भवितुं शक्नोति चेत् नारायणः तु किमपि कर्तुं शक्नोति। द्वयोः प्रतिक्रियां दृष्ट्वा मुनिवरस्य शङ्कायाः निवारणं भवति। अहो, चर्मकारस्य विश्वासः। कथायाः अभिप्रायः एवम् अस्ति, ईश्वरं प्रति विश्वासः आवश्यकः, ततः एव वयं तस्य कृपां प्राप्नुमः, ततः एव वयं ईश्वरम् अपि प्राप्नुमः। धन्यवादः।